त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधं त्रिजन्म पापसंहारं एकबिल्वं शिवार्पणम् त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः तव पूजां करिष्यामि एकबिल्वं शिवार्पणम् सर्वत्रैलोक्यकर्ता च सर्वत्रैलोक्यपावनं सर्वत्रैलोक्यहर्तारम् एकबिल्वं शिवार्पणम् नागाधिराजवलयं नागहारेण भूषितं नागकुण्डलसंयुक्तम् एकबिल्वं शिवार्पणम् अक्षमालाधरं रुद्रं पार्वतीप्रियवल्लभं चन्द्रशेखरमीशानं एकबिल्वं शिवार्पणम् त्रिलोचनं दशभुजं उमादेहार्धधारिणं विभूतिभूषितं देवं एकबिल्वं शिवार्पणम् त्रिशूलधारिणं देवं नागाभरणभासुरं चन्द्रशेखरमीशानम् एकबिल्वं शिवार्पणम् गङ्गाधराम्बिकानाथं फणिकुण्डलमण्डितं कालकालं गिरीशं च एकबिल्वं शिवार्पणम् शुद्धस्फटिकसङ्काशं शितिकण्ठं कृपानिधिं सर्वेश्वरं सदाशान्तम् एकबिल्वं शिवार्पणम् सच्चिदानन्दरूपं च परमानन्ददं शिवं वागीश्वरं चिदाकाशम् एकबिल्वं शिवार्पणम् शिपिविष्टं सहस्राक्षं दुन्दुभ्यं च निषङ्गिणं हिरण्यबाहुं सेनान्यम् एकबिल्वं शिवार्पणम् अरुणं वामनं तारं वास्तव्यं चैव वास्तुपं ज्येष्ठं कनिष्ठं वैषन्तम् एकबिल्वं शिवार्पणम् हरिकेशं च नन्दीशम् उच्चैद्घोषं सनातनम् अघोररूपं घोरं च एकबिल्वं शिवार्पणम् पूर्वजावरजं याम्यं शून्यं तस्करनायकं नीलकण्ठं जघन्यं च एकबिल्वं शिवार्पणम्।